इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। सर्वोच्च न्यायालयेन नवम्बर मासस्य 20 दिनांके अरावली परिधि परिभाषायाः प्रकरणे प्रस्तुतः स्वकीयः आदेशः स्थगितोऽस्ति। मुख्य न्यायाधीशः सूर्यकान्तः, न्यायमूर्तिः जेके माहेश्वरी अथ एजी मसीह इत्येतेषां पीठेन अरावल्याः पर्वतत्वेन प्रदत्त परिभाषायाः परीक्षणार्थं नूतन विशेषज्ञ समित्याः गठनस्य आदेशो प्रदत्तः। स्वस्य निर्णये सर्वोच्चन्यायालयः अवदत् यत् पूर्वानुमोदितेषु परिभाषासु स्पष्टीकरणम् आवश्यकम् अस्ति इति। न्यायालयः अवदत् यत् केचन विषयाः सन्ति येषु स्पष्टीकरणस्य आवश्यकता विद्यते। न्यायालयेन केन्द्राय चतुर्भ्यः राजस्थान, गुजरात, दिल्ली, हरियाणादिभ्यः अरावलीराज्येभ्यश्च सूचना दत्ता येन अस्मिन् विषये स्वप्रेरणया प्रकरणस्य विषये तेषां प्रतिक्रिया आगच्छेदिति। विषयेऽस्मिन् न्यायालयेन विचारणीय विषयत्वेन स्वयमेव संज्ञानं गृहीतमासीत्। केन्द्रीय पर्यावरण वन ऋतुदशा परिवर्तन मन्त्री भूपेन्द्र यादवः अरावली पर्वतमाला सम्बद्धं सर्वोच्च न्यायालयस्य निर्णयं स्वागतयोग्यं प्रत्यपादयत्। प्रधानमन्त्री नरेन्द्र मोदी अद्य नीति आयोगे प्रमुख अर्थशास्त्रज्ञैः विषय विशेषज्ञैः च सह मेलनं करिष्यति। यत् प्रमुख आर्थिक निर्णयानां प्राक् सर्वकारस्य वर्तमान परामर्शस्य अंशः अस्ति। वित्तमन्त्री निर्मला सीतारामनः अपि अस्मिन् संवादे भागं ग्रहीष्यति, यस्मिन् विविध आर्थिक विषयेषु ध्यानप्रदानस्य अपेक्षा अस्ति। देशस्य वर्तमान आर्थिक स्थितिं भविष्यस्य प्राथमिकतायाः च विषये स्वविचारान् मूल्यांकनं च निवेदयितुं विशेषज्ञानां कृते एषा सभा मञ्चरूपेण कार्यं करिष्यति इति सम्भावनास्ति। कृषि कृषक कल्याण ग्राम विकास मन्त्रिणा शिवराज सिंह चौहानेन ह्यः उक्तं यत् केन्द्रसर्वकारेण महात्मा गांधी राष्ट्रिय ग्रामीण रोजगार प्रत्याभूति अधिनियमे मनरेगा 75/2000 इत्यस्मिन् समाह्वानान् अनियमिततां च परिहर्तुं विकसित भारत जीरामजी इति नूतनः विधिः प्रवर्तितः अस्ति। उत्तराखण्डस्य गौचरनगरे 25/2000 राज्यस्तरीय कृषिदिवस कार्यक्रमे मन्त्री भाषमाणः आसीत्। सः अवदत् यत् नूतनेन विधिना सुनिश्चितः वृत्त्यावसरः 100 दिवसात् 25/1000 दिनानि यावत् वर्धितः अस्ति। केन्द्रीय गृहमन्त्री तथा भाजपेति दलस्य वरिष्ठः नेता अमितशाहः विभिन्नासु संघटनसभासु कार्यक्रमेषु च भागग्रहणाय गतरात्रौ पश्चिमबंगप्रदेशे सम्प्राप्तवान्। स्वयात्रावधौ गृहमन्त्री अद्य श्वः च राज्यदलस्य पदाधिकारिभिः सह आगामि निर्वाचनानां निर्वाचनकार्यनीतीनां च विषये चर्चयितुम् अनेकाः उच्चस्तरीय सभाः करिष्यति। तस्य प्रथमं प्रमुखं संघटनसभा अद्य अपराह्ने विधाननगरे भविष्यति। केन्द्रीय नागरिक उड्डयन मन्त्री किंजरापु राममोहन नायडुः अद्य बेंगलुरुनगरे ध्रुव एनजी उदग्र विमानस्य प्रथमं उद्घाटनोड्डयनं हरितध्वजं प्रदर्शयिष्यति। एडवांस्ड लाइट हेलीकॉप्टर नेक्स्ट जनरेशन ध्रुव उदग्र विमानस्य स्वदेशी उदग्र विमानस्य नागरिक संस्करणमस्ति यत् 25/2000 वर्षे एरो इंडिया प्रदर्शने HAL इत्यनेन प्रदर्शितमासीत्। देशस्य औद्योगिकोत्पादन वृद्धिः अस्मिन् वर्षे नवम्बर मासे वार्षिकरूपेण 7.6% यावत् वर्षद्वयोः उच्चस्तरे अस्ति। महिला क्रिकेट क्रीडायाम् अद्य तिरुवनन्तपुरम नगरे 20/20 अन्ताराष्ट्रिय क्रीडा श्रृंखलायाः पञ्चमान्तिम स्पर्धायां भारतीय दलं श्रीलंका दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः भारतीय समयानुसारं सायं 7 वादने भविष्यति। इति वार्ताः।